अथ एकदन्तगणेशस्तोत्रम्। महासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखासुराः विग्वादयश्च मुनया एकदन्तं समाययुः। प्रणम्यतं प्रपूज्यादौ पुनस्तं नेमुरादरात् तुष्टुवुल्हर्षसंयुक्ता एकदन्तं गणेश्वरं। देवर्षय ऊचुः सदात्मरूपं सकलादिभूतममयिनं सोऽहमचिन्त्यबोधम्। अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः। अनन्तचिद्रूपमयं गणेशं यवेदभेदादिविहीनमाद्यं। हृदि प्रकाशस्य धरं स्वधिस्थं तमेकदन्तं शरणं व्रजामः। विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विधान्तमेकम्। सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः। स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः। त्वदीयवीर्येण समर्थभूता मायातया संरचितं च विश्वं नादात्मकं यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः। त्वदीयसत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारं सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः। ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः। तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् अनेकरूपं यजमेकभूतं तमेकदन्तं शरणं व्रजामः। ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थं सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः। तदेव स्वप्नं तपसा गणेशं ससिद्धिरूपं विविधं बभूव सदैकरूपं कृपया तवापि तमेकदन्तं शरणं व्रजामः। सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपं तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः। जाग्रत्स्वरूपं व्रजसा विभातं विलोकितं तत्कृपया यदैव तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः। एवञ्च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वञ्च विभासि नित्यं बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः। त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्तिके वै आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः। त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः। त्वदाज्ञया संहरते हरोऽपि तमेकदन्तं शरणं व्रजामः। यदाज्ञया भूर्जलमद्य संस्था यदाज्ञया प्रवहन्ति नद्य सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः। यदाज्ञया देवगणो दिविष्ठो ददाति वै कर्मफलानि नित्यं यदाज्ञया शैलगणो चलो वै तमेकदन्तं शरणं व्रजामः। यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च काम यदाज्ञया कालधरोर्यमा च तमेकदन्तं शरणं व्रजामः। यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्यठरादिसंस्थः यदाज्ञया वै सचराचरञ्च तमेकदन्तं शरणं व्रजामः। सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः। यंयोगिनो योगबलेन साध्यं कुर्वन्ति तङ्कस्तवनेन स्तौति अतः प्रणामेन सुसिद्धिदोस्तु तमेकदन्तं शरणं व्रजामः। गृत्समद उवाच एवं स्तुत्वा च प्रह्लादं देवासमुनयश्च वै तूष्णीभावं प्रपद्यैव नन्ऋतुर्हर्षसंयुताः सतानुवाच प्रीतात्मा ह्येकदन्तत्तवेन वै जगादतान् महाभागान् देवर्षिन् भक्तवत्सलः एकदन्त उवाच प्रसन्नोऽस्मि च स्तोत्रेण सुरा सप्तर्षिणा किल वृणुध्वं वरदोऽहं वो दास्यामि मनसि प्सितम् भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम भविष्यति न सन्देह सर्वसिद्धिप्रदायकम् यं यम् इच्छति तं तं वै दास्यामि स्तोत्रपाठतः पुत्रपौत्रादिकं सर्वं लभते धनधान्यकं गजाश्वादिकमत्यन्तं राज्यभोगं लभे ध्रुवं भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् पठतां शृण्वतां नृणां भवेच्च बन्धहीनता एकविंशतिवारं च श्लोकाश्चैवैकविंशतिं पठते नित्यमेकं च दिनानि त्वेकविंशतिं न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु वै भवेत् असाध्यं साधयेन्मर्त्य सर्वत्र विजयो भवेत् नित्यं य पठते स्तोत्रं ब्रह्मभूत स वै नरः तस्य दर्शनतः सर्वे देवा पूता भवन्ति वै एवं तस्य वचः श्रुत्वा प्ररिष्टा देवतर्षयः कोचुः करपुटा सर्वे भक्तियुक्ता गजाननम् इत्येकदा